ಹೇನಾಕ್ಷರಸಮಾಂ ನಾಯಿಂ ಅಧಿಗಮ್ಯ ಮಹೇಶ್ವರ ಕೃತ್ಸ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಿಯೇ ನಮಃ. ವಾಕ್ಯಕಾರಂ ವರದತಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣತೋಸ್ಮೋ ನಿತ್ರಯಂ ಮುನಿತ್ರಯಂ ನಮಸ್ಕೃತ್ಯ ತದಪ್ತೀಶ್ವರಿ ಭಾವ್ಯಕ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಹಿಂ ವಿರಚ್ಯತೆ. ಸಿದ್ಧಾಂತ ಕೌಮುದ್ಯ ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ಪ್ರಕರಣೆ ತ್ರಿಕರ್ಮಕ ಪ್ರಯೋಗಾಣಾಂ ವಿಷಯ ಅಪಾದಾನಾದಿಕಾರಕವಿಶೇಷೈಃ ಅವಿವಕ್ಷಿತಂ ಕಾರಕಂ ಕರ್ಮಸಂಯಂ ಸ್ಯಾತ್ ಇತಿ ಕರ್ಮಸಂಯಾ ವಿಧೀಯತೆ. ಅಂತೆ ಯಂ ಕರ್ಮಸಂಯಾ ಸರ್ವೇಷಾಂ ಧಾತೂನಾಂ ವಿಷಯೇ ನ ಭವತಿ ಅಪಾದಾನಾದಿಕಾರಕವಿಶೇಷೈಃ ಅವಿವಕ್ಷಿತಂ ಸತ್ ಕಾರಕಂ ಯತ್ ಭವತಿ ತಸ್ಯ ಕರ್ಮಸಂಯಾ ಭವತಿ ಇತಿ ಉಚ್ಯತೆ. ತಾದೃಶಂ ಕರ್ಮ ಅಪ್ರಧಾನಕರ್ಮ ಅಥವಾ ಗೌಣಕರ್ಮ ಇತ್ಯಪಿ ಕಥ್ಯತೆ. ಎತ್ತು ತಸ್ಯ ಧಾತೋಃ ಪ್ರಧಾನಂ ಕರ್ಮ ಕ್ರಿಯಾಜನ್ಯ ಫಲಾಶ್ರಯಃ ಕರ್ಮ ಕರ್ತವ್ಯಸ್ಯತಮಂ ಕರ್ಮ ಇತ್ಯನೇನ ಯಸ್ಯ ಕಾರಕಸ್ಯ ಕರ್ಮಸಂಜ್ಞಾ ಭವತಿ ತತ್ಕಾರಕಂ ಪ್ರಧಾನ ಕರ್ಮ ಇತ್ಯುಚ್ಯತೆ ಅಥವಾ ಮುಖ್ಯ ಕರ್ಮ ಇತಿ ಉಚ್ಯತೆ. ಯಸ್ಯ ತು ಅಕಥಿತಂತ ಇತಿ ಸೂತ್ರೇಣ ಅನ್ಯಕಾರಕ ಅವಿವಕ್ಷಾಯಾಂ ಕರ್ಮತ್ವಂ ವಿಧೀಯತೆ. ತಸ್ಯ ಅಪ್ರಧಾನ ಕರ್ಮ ಅಥವಾ ಗೌಣಕರ್ಮ ಇತಿ ವ್ಯವಹಾರಃ. ಇದಾನಿ ಷೋಡಶ ಧಾತವಃ ಸಂತಿ ದುಹೂಯಾಚ ಕಚ್ಚ ದಂಡ ಇತ್ಯಾದಿನ ಹೇಶಾಂ ಧಾತೂನಾಂ ಪ್ರಯೋಗಂ ದರ್ಶಯಂತಿ ದೀಕ್ಷಿತಾಃ ಗಾಂ ದೋಂಕಿ ಪಯಃ ಇತಿ ಪ್ರಥಮ ಪ್ರಯೋಗಃ. ಗೋಪಾಲಃ ಗಾಂ ಪಯಃ ದೋಂಕಿ ವಸ್ತುತಃ ಪಯಃ ದೋಂಕಿ ಕ್ಷೀರಂ ದೋಂಕಿ ಇತಿ ಕ್ಷೀರಸ್ಯ ಪ್ರಧಾನ ಕರ್ಮತ್ವಂ ಅಸ್ತಿ. ಧಾತುಜನ್ಯ ಫಲಃ ನಾಮ ಫಲಂ ನಾಮ ಕ್ಷರಣಂ ತಸ್ಯ ಆಶ್ರಯತ್ವಾತ್ ಪಯಸಃ ಅಥವಾ ಕ್ಷೀರಸ್ಯ ಇಚ್ಛಿತತಮತ್ವಾತ್. ವಾಟ್ ಡಸ್ ದ ಗೋಪಾಲ ಡಿಸೈರ್ ಮೋಸ್ಟ್ ಇಸ್ ದ ಪಯಸ್. ಇಚ್ಛಿತತಮತ್ವಾತ್ ಸತುರಿಚ್ಛಿತತಮಂ ಕರ್ಮ ಇತ್ಯನೇನ ಪಯಸಃ ಕರ್ಮತ್ವಂ ಅಸ್ತಿ. ಗೌಹು ತು ವಸ್ತುತಃ ಅಪಾದಾನಂ ಅಪಾದಾನಸ್ಯ ಅಭಿರಕ್ಷಾಯಾಂ ವೆನ್ ಇಟ್ ಇಸ್ ನಾಟ್ ಇಂಟೆಂಡೆಡ್ ಟು ಬಿ ಯೂಸ್ ಆಸ್ ಅನ್ ಅಪಾದಾನ ಸದಾ ಕಿಂ ಭವತಿ ಅನೇನ ಅಕಥಿತಂಚ ಇತ್ಯನೇನ ಕರ್ಮಸಂಯಾಯಾಂ ಗಾಂ ಪಯಃ ದೋಗ್ಧಿ ಇತಿ ಪ್ರಯೋಗಃ ಭವತಿ. ಗಾಂ ಇತಿ ಅಪ್ರಧಾನಂ ಕರ್ಮ ಪಯಃ ಇತಿ ಪ್ರಧಾನಂ ಕರ್ಮ. ದ್ವಿತೀಯ ಉದಾಹರಣಮಸ್ತಿ ಬಲಿಂ ಯಾಸತೆ ವಸುಧಾಂ. ರಾಮನಃ ಬಲಿಂ ವಸುಧಾಂ ಯಾಸತೆ ಇತಿ ಪ್ರಯೋಗಃ. ದಾನಾನುಕೂಲ ವ್ಯಾಪಾರ ಯಾಸಿ ಧಾತೋರ್ ಅರ್ಥ. ತತ್ರ ಕಸ್ಯ ದಾನಂ ಭವತಿ ವಸುಧಾಯಾಃ ಕರ್ತುಃ ನಾಮ ವಾಮನಸ್ಯ ವಾಮನಃ ಯಾಸತೆ ವಾಮನಃ ಕರ್ತ ತಸ್ಯ ಇಚ್ಛಿತತಮಂ ಕಿಂ ವಸುಧಾ ಭೂಮಿ ಇಚ್ಛಿತತಮ ತಸ್ಮಾತ್ ತಸ್ಯಾಹ ವಸುಧಾಯಾಹ ಇಚ್ಛಿತತಮಂ ಕರ್ಮ ಕರ್ತರಿಚ್ಛಿತತಮಂ ಕರ್ಮ ಇತ್ಯನೇನ ಕರ್ಮ ಸಂಜ್ಞಾ ಭವತಿ. ಬಲಿಸ್ತು ಪುನಃ ಅತ್ರಾಪಿ ಅಪಾದಾನಂ ಬಲಿ ಅಗೇನ್ ಹಿಯರ್ ಇಸ್ ಅಪಾದಾನ ಬಲೇಹ ವಸುಧಾ ಜ್ಞಾಯತೆ. ಫ್ರಮ್ ಬಲಿ ಹಿ ಇಸ್ ಟ್ರೈಂಗ್ ಟು ಗೆಟ್ ದ ಅರ್ತ್ ಅ ಪೀಸ್ ಆಫ್ ಲ್ಯಾಂಡ್. ಸೊ ಬಲೇಹ ಅಪಾದಾನತ್ವಂ ಅಸ್ತಿ ಅಪಾದಾನಸ್ಯ ಅಭಿರಕ್ಷಾಯಾಂ ಅಕಥಿತಂತ ಇತ್ಯನೇನ ಕರ್ಮ ಸಂಜ್ಞಾ ಭವತಿ. ಬಲಿ ಗೌಣಕರ್ಮ ವಸುಧಾ ಪ್ರಧಾನ ಕರ್ಮ. ಅವಿನೀತಂ ವಿನಯಂ ಯಾಸತೆ ಇತಿ ಅಪರ ಪ್ರಯೋಗ. ಯತ್ರ ಯಾಸಿ ಧಾತುಃ ಭಿನ್ನೇ ಅರ್ಥೇ ಉಪಯುಕ್ತಃ. ಯಾಸಿ ಧಾತೋಃ ವಸುಧಾಂ ಯಾಸತೆ ಇತ್ಯತ್ರ ದಾನಾನುಕೂಲಃ ವ್ಯಾಪಾರಃ ಯಾಸಿ ಧಾತೋಃ ಅರ್ಥಃ. ಅವಿನೀತಂ ವಿನಯಂ ಯಾಸತೆ ಇತ್ಯತ್ರ ತು ಸಹ ಅರ್ಥಃ ನಾಸ್ತಿ. ದಿಸ್ ಇಸ್ ನಾಟ್ ಆಕ್ಚುಲಿ begging for something, to get something. Atra kaha arthaha, it is said, anunayanukulaha vyaparaha. Dhato, aminitam vinayam yasate, it is said, there is a weak person and there is somebody, a bully. Okay, aminitaha, with the bully sister. So he is trying to terrorize the weak person, and the weak person is trying to convince him to be polite. Avinutam vinayam yasate. He is trying to convince. Yasana here is anunayanukulaha vyaparaha. Anunayaha. Samadhanam kartum prayatate. Tasmat tadrishe artha yada yasa dhatuh asti tada tasya durbalasya ichchiratamam bhavati vinayaha. He wants politeness or he wants some respect from the bully. Tasmat ichchiratamasmat vinayasya avinitaha is the karma. Anunayanukulaha vyaparaha. So the ichchiratama for anunaya, the phala of anunayanukula vyapara is anunaya. And the ashraya for that anunaya is avinita. It is the avinita whom he is trying to convince. Atayeva yasadhatoho atra anunayanukulaha vyaparaha itvyastaha. Tatra karma bhavati avinitaha. Pradhanam karma bhavati avinitaha. Kimartham tam anunetum prayatate. Why is he trying to convince him? Vinayartham. Vinayam praptum yatate. Vinayasya padartham asti. There is something called padartham which we will see later in Chaturthi Vibhakti. So padartham asti. Padarthyasya avivakshayam akathikancha ityanena karmatvam bhavati. Vinayam apradhana karma athava gauna karma. Avinitaha pradhanam karma. Okay, I'm using whiteboard 147 if somebody is having problem in seeing the presentation. Pachakaha gandulan odanam pachati. Yes, let's see. Pachadhatuhu duhu yaach pachati. Pachadhatuhu prayogaha. Pachakaha pachati. Yes, let's see. Kim pachati iti prashnaha. Pachataha atrayadasti. Upayati pradhanam karma bhavitum arhati. When you use them independently, pachakaha tandulan pachati ityapi bhavati, pachakaha odanam pachati ityapi bhavati. Yada ubhayohu prayogaha asti, tandulan odanam pachati. He cooks the rice, that is the unboiled tandula, is the uncooked rice, so that it becomes cooked rice. Odanam ityasya boiled rice, athava cooked rice ityasaha, tandulaha tatprakriti bhutaha. Atra pradhanam karma bhavati odanam. This is the odana in which you are seeing the vislipti. Vislipti rupam phalam odane vishyate tasmat odanam karma. Tahi tandulaha kim iti cheta odanasya prakriti bhutaha. That is, actually tandula and odana are not different from each other. Right? Tandula itself is converted to odana. Tasmat tandulaha prakriti bhutaha. Odanam karma iti uchyate. Sarhi tandulaha karanam. Tandulaihi odanam patati. Iti prayogaha syat. Actually tandula are the prakriti of odana. The moola swarupa, that is the initial stage or the original form of odana is tandula. So prakrityau karanatve tritiya upayoktavya. Hintu yada karanatvasya avivaksha. When the intention is not to convey that karanatva, tada kim bhavati, nena akathikantva ityanena tasyaapi karmatvam bhavati. Tadani tandulaha gauna karma odanam pradhana karma. Sheta phalakam na drishyate va? So, can't you see any presentation? Anya ye api na drishyate va? Idaniam yadi login kratam tarhi kashchana kalaha apekshyate. If you logged in just now, you will require some time for it to load. Or if you just change it to the whiteboard. 119 तह 147 तह इदानी यदि परिवर्तनम करतम तदा तस्य काला हाते शक्ति टेक सम टाइम टू लोड एंड सिंक्रोनाइज बट यू कैन स्टिल यूज़ द प्रेजेंटेशन आई सेंड द प्रेजेंटेशन टुडे मॉर्निंग You can use it. Gargan shatam dandayati. Iti agyosaka. Dukuyas pasit dand. Dandaha nama fine itartha. Raja gargan shatam dandayati. Dandanam nama grahananukulaha vyaparaha. Taking something possibly as a fine from somebody is called dandana. Kim sikaroti. Kasya grahanam bhavati. Grahananukulaha vyaparaha nama grahanam phalam. Kasya ashraha bhavati shatam. What is being taken? 100 rupees or 100 varahas is what is being taken. Ataha shatam shatasya pradhana karmatva asti ipsitaramatva. What the Raja desires most is that 100 rupees or something. Ataha tasya pradhana karmatva asti. Kebhyaha sikaroti. From whom does he take? Gargebhyaha shatam shatarupratatmakam varahatmakam va kyanti sikaroti. Ataha gargaha apadanam. Since he is taking those 100 rupees from the garga, garganam apadanam asti, apadanasya avivakshayam, atatutanta ityanena karmatvam bhavati. Vrajam avarunadhi gam. Gopalaha vrajam avarunadhi gam. The gopala, the cowherd, he ties up the cow in vraja. Vraja is the name of a place. It is a village, cowherd village, his brother. Avarodhanam, avarunadhi, avarodhanam nama, nirgama pratibandhanukulaha vyaparaha. It is something which prevents somebody from moving away. Something which prevents moving away is called avarodha, the tie up. What does he tie up? Or who's going away is he trying to prevent? The cow. Ataha gauhu karma, ipsitaramatvat. Phalashrayatmat gauhu karma. Kutra avarunadhi, where does he tie up the cow? In vraja. Adaha vrajaha adhikaranam. Vraja is the location for the tying up. Vrajaha adhikaranam asti. Adhikaranasya avivakshayam atadhitancha ityanena karma samnya bhavati. Vrajam avarunadhi dam. We are saying not just the vyapara. The vyapara will always include the phala. Okay. Udaharanartham. Vikirti anukulaha vyaparaha means vikirti is the phala. Phala vyapara yohu. What is the point is to understand the dhatu. Satra phalam kin phala shre karma. Without knowing the dhatu, without knowing the phala and the vyapara of the dhatu, you cannot decide the phala. If you don't decide the phala, you cannot decide karma. What is the pradhana karma? Bhatvartha kaha, satra phalam kin, kasya phalasya ashrayatvena karmatvam kasya iti jnatavyam. And this is one major hurdle which people face. Kevalam dhatohu vachane, kim phalam kim karma iti nirnaye kashtesha hasya ataha uchyate. Maamakam kanthanam prichyati. What is only in those vyaparas or others too? I did not understand the question. Okay. Panthaha manavakam panthanam pichati. Dukuyas pasidanda ityadirita agrimaha dhatuhu satcha dhatuhu. Satcha nishtayam. Satcha is the desire to know something. Vijnasita artha jnananukulaha. Vijnasita artha jnananukulaha vyaparaha satcha dhatuhu arthaha. So what does he want to know? Panthaha. The panthaha traveler asks the way for the boy. He asks the boy the way to somewhere. Tasmadu panthaha karma panthaha margaha the way. Tadeva tasya ichikatamam. Kartuhu ichikatamatvata karma samyabhavati pathaha. Tasmadu panthaha karma pradhanam karma. Manavaka jnane karanam. Manavaka is the instrument for knowing that way. That's the karanatvamasti. Karanatvasti avivakshaya agatitanjayatvenena karma bhavati manavakam santhanam pachyati. Shishyam prashnam pachyati. Ekrani ritya sarvatra prasthadhatoho yogyati karmadvayam bhavati. Malaha vriksham avachinoti phalani. Vriksham avachinoti phalani. Avachinoti ityasya kortaha prasyagya adananu kulaha vyapara. Avachayana is to pluck roots. Pluck something, roots or flowers or something. This is not right for 119, this is 147, which I am using and I am navigating through that whiteboard. 119 had yesterday's presentation, it also had this content, but it will not have what I will tell later. Vriksham avachinoti phalani, so he plucks fruits. Karma bhavati phalani, ikshita tamatvat phalanam pradhana karmatvam. Vrikshaha punaha apadanam. Since he is plucking fruit from the tree, the vriksha is actually apadanam. Apadanasya avivakshayam atra karma samnya bhavati vriksham avasinoti phalani. Manavakam dharmam brute shaktiva. Chi bru shakti, brute shakti ityubhayohu atra bodhananukulaha vyaparaha sayoha asthaha. Result to teach, or to make somebody understand is what it is meant by in this context. Shasti ityasya shasanam karati, rules ityasya phahasti. Vasudham shasti athava rajyam shasti ityati. Kintu anushasanam ityadishu shasudhatohu bodhanam ityakarthaha asti. Okay. So if you cannot see this whiteboard, please make use of the presentation which I had sent through email. Okay. It might get loaded slowly or sometimes it might not get loaded. Maya ajya prataha preshitam kapaya tasya upayogam kurvantu. Dharmam brute athava dharmam shasti. Brudhatoho api, there is the general usage of braviti or brute is to simply tell. Asmin, in this context, asmin prayoge, guruhu dharmam brute etyatra bodhananukula vyaparaha dhatoho arthaha. You should also remember that dhatus are not used in a single sense. Sarvatra ayameva arthaha se dhatoho iti na bhavati. Most of the dhatus have varying shades of meaning depending on the prayoga. Some dhatus have widely varying shades of meaning, some dhatus have slightly varying, but variation is always there. Sarvatra vrudhatohu bodhananukulaha vyaparaha nasya. Sarvatra shasdhatohu bodhananukulaha vyaparaha arthaha nabhavati. Prayoganugunam kasmin prayoge ka dhatuhu kasmin arthe upayuktaha iti nishchiyate. इदानीं किं बोधयितुम् इच्छति गुरुः धर्मं बोधयितुम् इच्छति तस्मात् ईश्वरतमत्वात् धर्मस्य प्रधानकर्मत्वम् अस्ति कस्मै बोधयितुम् इच्छति whom does he want to enlighten with the dharma so manavaka it is the boy to whom he wants to give this dharma give the knowledge of this dharma अतः मानवकः संप्रदानम् the actual definitions of apadana sampradana will see later కర్మణ యమభిప్రైతి స సంప్రదానం ఇది సంప్రదానస్య లక్షణం అస్తి తేన లక్షణేన అత్ర మానవకస్య సంప్రదానత్వం భవతి సంప్రదానస్య అవివక్షాయాం అతర సంత ఇత్యనేన కర్మ సమ్య మానవకం ధర్మం బ్రూతే మానవకం ధర్మం శాస్తి ఇది ప్రయోగః శతం జయతి దేవదత్తం దేవదత్తం శతం జయతి సో అగైన్ జయతి ఇత్యస్య సాధారణతయా సహ అర్థః విక్రీ ఇత్యర్థః అత్ర తు గ్రహణానుకూల తాడనాది వ్యాపారార్థే అస్తి ఇట్ ఇస్ ఈదర్ టేకింగ్ సంథింగ్ త్రూ బెట్టింగ్ ఆర్ బీటింగ్ అప్ సంబడీ అండ్ టేకింగ్ సంథింగ్ ఫోర్సిబ్లీ తస్మిన్ అర్థే శతం జయతి దేవదత్తం ఇది ప్రయోగ అస్తి තදාකින් ඉච්ඡති සහය කියන දත්තහ සතන් ඉච්ඡති සස්මාතේ සතස්ය ප්‍රධාන කර්මත්වම් ඇති දේවල පහ පාදානම් තස්මාත් සීකරෝති සම්හෝ දහිතේ කත් කර්ම අපා දේවදත්ත එහෙන් දේවදත්ත එක් අපාදාන අපාදානස්ස අවික්ෂායම් අත්‍ර අනේන කර්ම සම්යෝ This is not only apadana. As we said just now, manava tasya sampradanasya vivakshayam karmatvam bhavitum arhati, karanasya vivakshayam karmatvam bhavitum arhati. Generally, we see apadana in most of the cases. In almost 80% of the cases of vikarmaka prayoga, apadanasya vivakshayam karma samyam bhavati. Kintu sayeva itinasti. We already saw examples where karanasya vivakshayam karma samyam vihita. సంప్రదానస్య వివక్షాయాం కర్మత్వం భవతి, సాధస్యస్య వివక్షాయాం కర్మత్వం భవతి, అధికరణస్య వివక్షాయాం కర్మత్వం భవతి, సర్వమస్తి. అపాదాన ఇస్ ద మెజారిటీ. సుధాం క్షీరనిధి అస్నాతి. దేవదానవ గణ, ద గ్రూప్ ఆఫ్ దేవాస్ ఇన్ దానవ, దే టర్న్ ద ఓషన్ ఫార్ సుధా, దట్ ఇస్ అమృత నెక్టార్. किम इच्छन्ति देवाः दानवाश्च सुधाम इच्छन्ति इच्छुततमत्वात् मथनस्य इच्छुततमं भवति सुधा तस्मात् सुधा प्रधानं कर्म तस्मात् सुधां स्वीकुर्वन्ति समवेयर आर दे टर्निंग द सुधा समवेयर आर दे गेटिंग द सुधा आउट ऑफ क्षीरनिधेः सुधां प्राप्तुं मथनं कुर्वन्ति तस्मात् क्षीरनिधि अपादानम् अपादानस्य अविवक्षायाम् अत्र कर्मसंज्ञा గ్రామం అజాం నయతి హరతి కర్షతి వహతి వా. సో యు కెన్ యూజ్ ఈచ్ ఆఫ్ దెమ్ అస్ సెపరేట్ సెంటెన్స్. గ్రామం అజాం నయతి, గ్రామం అజాం హరతి, గ్రామం అజాం కర్షతి, గ్రామం అజాం వహతి. సో వి డిస్కస్ యెస్టర్డే నయతి హరతి కర్షతి వహతి ఇత్యేతేషాం ప్రాయణ సమానార్థక ఇట్స్ దే ఆల్మోస్ట్ సేమ్ సిమిలర్ దే మీన్ టు క్యారీ ఆర్ టు టేక్ అ గోట్ ఫోర్ సిమిలర్. So, Nayati is to just carry, Harati or Karshati will be to drag it, etc. So, Kashtana Sukshmaharsa Vedahasti, Kintu, mostly it is taking it somewhere else. Kim Nayati, Ajam Nayati. Deishkuta Tama is Aja, Ajayaha, Karmatramasti, Kutra. So, where? Location is Brahma. Brahme, Ajam Nayati, Harati, Karshati. Adhikaranastramasti, Adhikaranasya Avivakshayam, ధాతూనాం విషయే వికర్మక ప్రయోగాః దృశ్యంతే. కింటు న కేవలం ఏతేషాం ధాతు ధాతూనాం విషయే ఇత్యుక్తే అర్థ నిబంధన ఇయం సంజ్ఞా. ఇయం సంజ్ఞా నామ అతతిదంచ ఇత్యనేన ప్రాప్యమాన కర్మ సంజ్ఞా. అర్థ నిబంధన దుఃఖ యాచ పచే ఇత్యాది రీత్యా ధాతవ ఉక్తాః తదర్థాః ఏ అన్యే ధాతవః సంతి. సో అదర్ ధాతు విచ్ మీన్ ద సేమ్ తేషామపి యోగే ద్వికర్మకత్వం భవతి. ఉదాహరణార్థం యాచ ధాతు అస్తి దుఃఖ యాచ ఇత్యత్ర తస్మిన్నేవ అర్థే భిక్ష ధాతు అపి అస్తి. బలిం భిక్షతేమ సుధాం ఇత్యత్రాపి ద్వికర్మకత్వం భవతి. ఇట్ ఇస్ నాట్ ఎగ్జాక్ట్లీ దీస్ 16, దట్ ఇస్ యు కెనాట్ సే ఇట్ ఇస్ ఓన్లీ దీస్ 16. These 16 and any dhatu which are used in the same sense. తస్మిన్నేవ అర్థే అన్యే యే ధాతవః సంతి తేషామపి ధాతూనాం ప్రయోగే ద్వికర్మకత్వం భవతి. అతఏవ బలిం భిక్షతే వసుధాం యాసు ధాతోః సమానార్థకత్వాత్ భిక్ష ధాతోః యోగేపి ద్వికర్మకత్వం భవతి. మానవకం ధర్మం భాషతే అభిధత్తే వక్తి బ్రూతే శాస్తి ఇది ద్వయం తత్ర ఉపాత్తం. భాషతే అభిధత్తే వక్తి ఇత్యాద్యపి ఇత్యాదీనాం ప్రయోగేపి ద్వికర్మకత్వం అస్తి. అన్య ప్రశ్న కారకం కిం సూత్రార్థ అకథితంచ ఇత్యత్ర సూత్రార్థత్వః ఆసీత్ అపాదానాది విశేషైః అవివక్షితం కారకం కర్మ సంయోగం భవతి.
it has to be a karaka and then only it can get karma samya. Okay, if it is not a karaka initially, karakam namakim iti vidikayameva swami charcha kruta. Yasya kriyanvayitvam asti, kriyanvayi karakam. Kriya saha sakshat sambandha yasya asti tasya eva karakatvam. Atra pashyantu, manavakasya pitaram panthanam prichyati yasya asti. Panthaha, manavakasya pitaram panthanam prichyati. Atra panthaha pradhanam karma. He wants to know the way, tasma tasya pradhana karma svam asti. Pita karanam bhavati. Tatra manavakam panthanam prichyati yasya asti. Tatra manavakasya apradhana karma svam. Atra pita karanam, he is asking the father. Tasmat pituhu apradhana karmatvam asti. Karanatvam karanatvasya vivakshayam karmatvam. Manavakah asti. Manavakasya kriyayasya sakshat sambandhah nasti. There is no anvaya between manavaka and the dhatu of asking. Pantha is related to asking as karma. It is the object of asking. Pita is related to the action because he is the instrument of knowing that thing. Hindu manavakasya tasyaha kriyayasya kopi sambandhaha nasti, anvayaha nasti. Manavaka is related only to pita. Manavakasya pita iti ubhayohu sambandhaha asti, manavakasya karakatvam nasti. Kriyayasaha anvayaha nasti. Ataha manavakaha na karakam. यदि कारकम नास्ति तर्हि अस्य मानवकस्य कर्मत्वं न भवति. इफ यू से संबंधस्य विवक्षा, आई डोंट वांट टू यूज द संबंध हियर, यू कैन नॉट मेक दिस अ कर्म. मानवकस्य अकथितञ्च इत्यनेन कर्मत्वं न भवति. कुतो न भवति? कारकत्वमेव नास्ति. यस्य मूले कारकत्वम् अस्ति तस्य कारकविशेषस्य अविवक्षायां कर्मत्वं भवितुम् अर्हति. यत्तु कारकमेव नास्ति तस्य अकथितञ्च इत्यनेन कर्म समया न भवति. कारकं किं मानवकस्य पितरं पन्थानं पृच्छति. एनी क्वेश्चन? अकथितञ्च इति सूत्रसम्बद्धम् एकं वाक्यकम् उच्यते इदानीम्. अकर्मकधातुभिर्यो मे देशकालो भावो गन्तव्योद्भात कर्मसंयकः इति वाच्यम् इति वार्तिकम्. अकर्मकाः धातवः सन्ति पूर्वं दृष्टाः. कथं धातूनां सकर्मकत्वम् अकर्मकत्वम् इति दृष्टम्. फलव्यापारयोः समानाधिकरण्ये अकर्मकत्वम्, वैयधिकरण्ये सकर्मकत्वम्. वेन् द फल एण्ड् धातु are residing in two different things or different people, tada sakarmakaha. Raharanatam kallulan pachati athava odhanam pachati ityatra vyaparaha patake bhavati phalam tu odhane drishyate. Esham vayyadhikaranyam, they are located in two different things. Atasmat tatra sakarmakatvam, patadhatoho sakarmakatvam. Yadatu vardhate, growing up. The action of growing up and the phala of growing up is both seen in the same thing, whether it is a man or whether it is a plant, etc. Tasmat tadrishanam dhatunam akarmakattvam ityasti. Idanim akarmakanam dhatunam vishaye pradhanam karma na bhavati iti nishchitam. The ichchitatamam karma, katvari ichchitatamam karma iti va, tatha ichchitam cha ichchitam iti va, karma samya na bhavati. There is no actual karma. Kintu अकथितञ्च इत्यनेन कर्म संज्ञा भवति वा इति प्रश्नः. दे विल् नाट् बि द्विकर्मकः बिकास् कर्म इत्सेल्फ् इस् नाट् देर्. तथापि तेषां धातूनां विषये क्वचित् द्वितीयविभक्तेः अर्थात् कर्मणः प्रयोगः दृष्टः. तदर्थम् इदं वार्तिकमस्ति. अकर्मकधातुभिः योगे, ये कर्मकाः धातवः तेषां योगे देशः, कालः, भावः, गन्तव्योद्भास कर्म सम्यकः. एतेषां चतुर्णामपि कर्मसंज्ञा भवति. दिस् इस् लैक् अकथितञ्च. इट् इस् एक्चुलि देश कालाभाव मोस्ट्लि दे आर् अधिकरण. सो तेषाम् अविवक्षायां कदाचित् कर्मसंज्ञा भवति. कर्मसंज्ञापर्यन्ता द्वितीयाविभक्तिश्च भवति. दे आर् नाट् इच्छुततमकर्म. प्रधानं यत् फलाश्रयः कर्म इति उच्यते तादृशं कर्मत्वं न भवति अकर्मकधातूनां विषये. तथापि अकथितञ्च इत्येतत् सदृशं सिमिलर् टु दट् वेर् इस् अ कर्मसंज्ञा विच् इस् बीङ्ग् गिवन् आर्टिफिशियलि टु दीस् थिङ्ग्स्. देशः कुरु पाञ्चालादि देशवाचकः, द इण्डिकेटर् आफ् द नेम् आफ् अ कण्ट्रि, तस्य कर्मसंज्ञा भवितुम् अर्हति. एवं कालः, कालः नाम माससंवत्सरादि कालवाचकः, द इण्डिकेटर् आफ् अ पर्टिक्युलर् पीरियड् आफ् टैम् लैक् मन्त्, इयर्, वीक् एट्सेट्रा, तादृशानाम्. भावः, भावो नाम धात्वर्थः इत्युच्यते, नाम क्रिया, ओके, सम् पर्टिक्युलर् क्रिया इस् काल्ड् भाव. भावः गन्तव्यो अध्वा, एण्ड् द अध्वा इति मार्गः इत्यर्थः, गन्तव्यः मार्गः. क्रोशादि मार्गपरिमाणवाचकः, a measure of distance to be covered. Krosha, Yojana, etc. were all words which were used for indicating distance to be covered in those days. Tadrisha marga parimana vasaka namcha karma samya bhavati. Karma samya ityukte tatrayuka ditiya vibhakti rapi bhavati ityarthah. Udaharanam kurun svapiti ityasti. Kuru iti deshasya nama. It is the name of the country. कुरुषु स्वपिः इति भवेत्. हि स्लीप् इन् द कुरु देश. एकः विशेषः, देशवाचकानां शब्दानां सर्वदा बहुवचने प्रयोगः इति नियमः अस्ति. यद्यपि कुरु देशः, तथापि कुरुषु कुरवः इत्येव उच्यते, न तु केवलं कुरुः इति. तत् च प्रयोगविशेषः. अतः कुरुषु स्वपिः, कुरुदेशे स्वपिः इत्यर्थे देशवाचकस्य स्वपिः स्वपधातुः अकर्मकः, तस्य योगे अथवा तेन योगे कुरु इति देशवाचकस्य कर्मत्वं तत्रयुक्ता द्वितीयाय भक्तिः कुरून् स्वपिति इति प्रयोगः भवितुमर्हति. कुरुषु स्वपिति इति अधुकरणस्य वाचकत्वे तदपि अस्ति. कुरुषु स्वपिति इस् आल्सो करेक्ट्, किन्तु तस्य अधिकरणस्य अविवक्षायां कुरून् स्वपिति इति कर्मसंज्ञा अपि भवति. एवं मासम् आस्ते, मासः कालवाचकः, देशः कालः, मासे आस्ते, हि स्टेस् फर् अ मन्त् इत्यर्थे कालवाचकस्य कर्मसंज्ञायां द्वितीया विभक्तिः भवति मासम् आस्ते. गोदोहम् आस्ते, गोदोहः, गोदोह इस् द क्रिया आफ् द मिल्किङ्ग् आफ् द कौस्. वस्तुतः अत्र गोदोहम् आस्ते इत्यस्य कोऽर्थः, हि स्टेस् फर् एस् लाङ्ग् एस् द कौस् आर् मिल्क्ड्, यावत् पर्यन्तं गवां दोहनं भवति तावत् तिष्ठति इत्यर्थः गोदोहम् आस्ते. Even though it ends up being kalavachaka, atra godoha kalaha vastutaha vivakshitaha. Tathapi, godoha is not originally a kalavachaka. Okay? Yatha masaha ityasya sarvada kalavachakatvam eva asti, samvatsaraha ityasya sarvada saha kalavachakaha, tatha godoha iti kalavachakaha nasti. It is not originally a kalavachaka. It does not indicate time. It indicates kriya. It indicates bhavaha nama kriya. सा क्रिया गवां दोहनक्रिया तया तेन पदेन उच्यते, गोदोहः इति पदेन. गोदोहम् आस्ते इति यदा प्रयोगः, तदा फलितार्थकः गवां दोहनकालपर्यन्तं सः तिष्ठति इत्यर्थः. किन्तु वस्तुतः कालवाचकत्वं नास्ति इत्यतः कालः इत्यनेन कर्मसंज्ञा न भवति. आस्ते आस उपवेशः, स्टेस् इत्यर्थः, हि विल् बि देर्. गोदोहम् आस्ते, उपस्थितिः, आम् वस्तुतः अस्ति इत्यस्य योत्सः तस्मिन्नेव अर्थे आस्ते इत्यपि भवति. सः भवति तावन्तं कालम् इत्येव. एवं क्रोशम् आस्ते, क्रोश इति मार्गपरिमाणवाचकः, क्रोशदूरे अस्ति. So he is at a distance of one krosha. Gantavyodhva. Gantavyaha adhva. The distance still to be covered is one krosha. So he is at a distance of one krosha. Ityartha. Krosham aste. Ityartha. He is at a distance of one krosha. Ityartha. Satya kroshasya gantavyodhva. Marga parimana vasakatvata. Atra karma samya bhavati. Odoham aste. He says, in the cows are milk, kashchana agatah, kiyat kalam atra bhavati, ityukte, yavat gavam dohanam bhavati, for as long as the cows are milked. He will leave after that ityarthe, vodoham aste. He will stay for as long as the cows are milked. Ityarthaha. Deshaha, kalaha, bhavaha, gantavyodha. The karma samyam prapnuti. Ete sarve kupiti ityapi akarmakaha dhatuhu, aste ityapi akarmakaha dhatuhu. Ataha pradhanam karma nasti. एतेषां कर्मवाचकत्वं भवति अनेन वाक्यकेन अकर्मकधातुभिर्योगे देशकालो भावो गन्तव्योद्भास कर्मसंयोगः इति वाक्यम् सः तत् एकं प्रकरणम् अकथितं च कर्मसंज्ञायां इट् गेट् थिङ्ग्स् क्लारिफैड् अस् ओवर् आदौ वस्तुतः कर्मसंज्ञा सत्वरीक्षित समं कर्म तथा यच्छन्ति अनीक्षितम् इति द्वाभ्याम् सूत्राभ्याम् कर्म संज्ञा विधीयते तदेव प्रधानम् कर्म द एक्चुअल कर्म इज द कर्म विच इज गिवन बै सत्वरीक्षित समं कर्म तथा यच्छन्ति अनीक्षितम् इत्यनेन कर्म संज्ञा विधीयते कर्मणः कर्मणा योगे द्वितीया विभक्तिश्च उक्ता तथा किम् अकथितम् च इत्यनेन क्वचित् अन्येषाम् कारकाणाम् अविवक्षायाम् कर्म संज्ञा भवति अर्थात् द्विकर्मकधातूनां प्रकरणं तथैव अकर्मकधातुभिर्योगे कथं कर्मसंज्ञा इत्यपि दृष्टम् इदानीं निदन्तानां विषये कर्मसंज्ञा इति भिन्नं प्रकरणम् आरभ्यते अग्रिमं सूत्रम् अस्ति प्रतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता चणौ चत्वारि पदानि सन्ति गति बुद्धि प्रत्यवसानार्थ शब्द कर्म अकर्मकाणाम् इति एकं पदम् द होल थिंग देयर आर फाइव पार्ट्स इन दट वन वर्ड गति बुद्धि प्रत्यवसानार्थ शब्द कर्म अकर्मकाणाम् इत्येकं समस्तं पदम् अणिकर्ता सः नौ इति चत्वारि पदानि सन्ति सत्रीक्षिततमं कर्म इति सूत्रात् कर्म इति अनुवर्तते कर्मसंज्ञा विधायकं चतुर्थं सूत्रमिदम् इस् इस् द फोर्थ सूत्र विच् इस् गिविंग कर्मसंज्ञा सत्तरीक्षिततमं कर्म तथा युक्तं च अनीक्षितम् अकथितं च अकथितं च एण्ड् गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म कर्मकाणाम् अनिकर्ता सणौ इति चतुर्थं सूत्रम् अत्र प्रश्नः अस्ति till the cows come home can we apply to godoham I am not really sure because godoha here indicates this it directly this indicates the time for which the cows are milked he'll stay for how long will he stay is till the cows are milked tatah param sah gachati ityarthe eva atah the english phrase तस्मिन् अर्थे न भवेत् इति चिन्तयामि किन्तु किञ्चित् चिन्तनीयमस्मिन् विषये विचिन्त्य वक्तव्यं भवति कमिङ्ग् बेक् टु गतिबुद्धि कोऽर्थः गतिबुद्धि प्रत्यवसानार्थ अस्ति गतिश्च बुद्धिश्च प्रत्यवसानं च गतिबुद्धिप्रत्यवसानानि एतेषाम् अर्थः येषां ते गतिबुद्धिप्रत्यवसानार्थाः So, dhatus which are gatyarthaka, buddhyarthaka or satyavasanartha. Gatyadhyarthanam, sathe gatyarthakanam, buddhyarthakanam, satyavasanarthakanam, shabdakarmanam, akarmakanam cha. Etesham panchanam, vishaye, anau eha karta, ni nama nigantaha, preranarthaka prayogaha. तद्भिन्ने शुद्धधातुप्रयोगे यः कर्ता सः णौ कर्म स्यात् इति सूत्रार्थः इदानीं चिन्तां न कुर्वन्तु विल् सी वाट् इस् इट् पुनः सूत्रार्थं प्रति आगच्छामः तदा अवगमनं भवति निदन्तप्रयोगाः नाम के इति आदौ ज्ञातव्यम् निदन्तः नाम कः नि अणौ अणिकर्ता इत्युच्यते णौ इति उच्यते नि नाम कः इति चेत् निच् इति कश्चन प्रत्ययः अस्ति निच् प्रत्ययः हेतुमति च इति सूत्रेण प्रेरणार्थकः प्रत्ययः प्रेरणायां हेतुमति यः कारणं भवति तस्य तस्मिन् अर्थे प्रेरणायां निच् इति प्रत्ययः भवति सर्वेभ्यः धातुभ्यः for all dhatus, prerana-arthe nich iti pratyayah nidhiyate. Bahu, you might not have heard of nich, but the prayomas are very common. Nichyah pathati. Pathati iti pathadhatoh svatantrasya prayomah. Guruhu paathayati iti nidanta prayomah. Ubhayatra pathadhatureva. Adau pathati ityatra svayam pathati ityatra. Guruhu paathayati ityatra pathitum prerayati. Guru makes him learn. That is, he teaches ityatra. So to learn and to teach. Pathati iti svatantraha dhatuhu. Paathayati iti nidantaha. Evam balaha bhukte. The boy eats. Bhuj svatantra dhatuhu prayogaha. Mata bhojayati. The mother feeds the boy. Ityarthe vaha nidanta prayogaha. So nidanta prayogaha prerana-arthe sarvesham dhatunam nich iti pratyaya bhavati. Prerana-arthaka prayogaha, nidanta prayogaha, ni iti bahudha uchyate. So that is what she is referring to as ni. Samanyataha nidanta prayogaha katham bhavanti. Nidanta prayoga vishaye kartrudvayam drishyate. You can always see two kartas in nidanta prayoga. Yaha vastutaha karyam nirvartayati. Arthat idanim guruhu shishyaha pathati ityasti. Yaha vastutaha pathati saha prayojya karta iti uchyate. He who actually does the action. Saha prayojya karta iti uchyate. Yaha tam karyam nirvartayitum pravartayati. He who makes him do. There is a person who is actually doing the work. He is the original karta. Shishyaha pathati ityatra yaha karta. Saha prayojya karta. When the guru makes him learn, shishyaha prayojya karta yaha prerayati. He who makes him to learn, saha prayojaka karta. Iti uchyate. Prayojya karta, prayojaka karta. Iti kartrudvayam. Sarvatra nidanta prayogesha drishyate. In all nidanta prayoga, we have these two types of kartas. One is a prayojya karta and the other is prayojaka karta. Udaharanartham, guruho shishyam paathayati ityatra, shishyaha prayojya karta. Guruho prayojaka karta. Evam, balaha bhunkte mata bhojayati ityatra, balaha prayojya karta. Because he is the one who is actually eating, doing the kriya. Mata tu prayojaka kartri. She makes him eat, ataha sa prayojika iti uchyate. So, sarvatra nidanta prayogeshu kartradvayam drishyate, prayojaka karta evam prayojya karta. Satyavasanam namakim iti prishtam, punaha avekshamaha, forget the sutra for now. We'll concentrate on nidanta prayogas and when we go back to the sutra, you will understand each word of the sutra. अस्मिन् विषये कोपक्लेशः कर्तृद्वयम् अस्ति निदन्तप्रयोगे प्रयोज्यकर्ता प्रयोजककर्ता वाक्ये एतेषां प्रयोगे कथं भवति इति चेत् ओरिजिनलि उभयोः कर्तृत्वमस्ति इत्यतः उभयोः कर्त्रोः कर्तृकरणयोः तृतीया इति तृतीया विभक्तिः भवेत् वेर् एवर् देर् इस् कर्ता कर्तृकारकस्य विभक्तिः भवति तृतीया विभक्तिः सो अनभिहितत्वे सति उभयोः कर्त्रोः तृतीया विभक्तिः भवेत् यदि अभिहितं तदा प्रातिपदिकार्थे प्रथमा भवति उदाहरणं पश्यामः देवदत्तः तण्डुलान् पचति इत्यस्य अयं शुद्धधातुः दिस् इस् नाट् निदन्त दिस् इस् जस्ट् पचति देवदत्तः तण्डुलान् पचति देवदत्तः कर्ता तण्डुलाः कर्म पाकः क्रिया अत्र कर्तरिप्रयोगे तिङा कर्ता अभिहितः as we already saw in अनभिहिते तिङ् प्रत्ययेन कर्तुः अभिहितत्वात् कर्तृपदात् तृतीया विभक्तिः न भवति प्रातिपदिकार्थे प्रथमा विभक्तिः भवति तदेव कर्मणि प्रयोगे देवदत्तेन तण्डुलाः पच्यन्ते निदन्तानां प्रयोगविषये इतोपि बहु अस्ति सो अग्रिमवर्गे पूर्णतया पठामः कवर् द एण्टैर् निदन्तप्रकरण इन् द नेक्स्ट् क्लास् कथं निदन्तानां साधारणतया कथं प्रयोगाः भवन्ति कथं केषां च एतेषां गतिबुद्ध्यादि धातूनां विषये कथं प्रयोगाः इति ज्ञातव्यमस्ति. अन्तिमकक्षायां पठामः. केनाक्षरकुमां नायम् अधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयं नमस्कृत्य तदस्तीश्वरि भाग्य च व्याकरणसिद्धान्तकौमुदीयं विरच्यते.